मम प्रियाः देशवासिनः नमस्कारः। अस्माकं देशः एतेषु दिनेषु एकतः वर्षायाः आनन्दमनुभवति, अपरतश्च हिन्दुस्थानस्य प्रत्येकमपि कोणे केनचिदपि प्रकारेण उत्सवाः मेलाश्च आयोज्यन्ते। दीपावलिं यावत् सर्वमिदं एवमेव प्रचलिष्यति। तथा च कदाचित् अस्माकं पूर्वजाः ऋतुचक्रम्, अर्थचक्रम्, समाज जीवनस्य च व्यवस्थां कुशलतया एवं प्रकारेण प्रावर्तयन् यत् कस्यामपि परिस्थितौ समाजः कदाचिदपि नीरसतां नैवानुभवेत्। विगतेषु दिनेषु वयम् अनेकान् उत्सवान् आयोजितवन्तः। गतदिने सम्पूर्णेपि हिन्दुस्थाने श्रीकृष्णजन्ममहोत्सवः परिकीर्तितः। कश्चन अपि कल्पयितुं किमु शक्नोति वा यत् कीदृशं व्यक्तित्वम् आसीदिति? सहस्राधिकेभ्यः वर्षेभ्योऽपि प्रत्येकमपि उत्सवः नवीनतामादाय समायाति, नूतनां प्रेरणामादाय आयाति, अभिनवाम् ऊर्जामादाय प्राप्नोति। तथा च सहस्राधिकेभ्यः वर्षेभ्योऽपि प्राचीनं जीवनमेतादृशं यत् तत् अद्यापि समस्यानां समाधानार्थम् उदाहरणानि दातुं शक्नुयात्, प्रेरणां प्रदातुम् अर्हेत्। प्रत्येकमपि जनः श्रीकृष्णस्य जीवनात् वर्तमानस्य समस्यानां समाधानमन्वेष्टुं शक्नोति। सत्यपि एतावति सामर्थ्ये कदाचिदसौ महारासं रममाणः, कदाचित् गवां मध्ये अटन्, कदाचिच्च गोपबालकैः सङ्क्रीडन्, कदाचिच्च वंशीं वादयन् विराजते स्म। न जाने कतिभिः विविधताभिः संभरितमासीत् तस्य व्यक्तित्वम्। अप्रतिम सामर्थ्ययुतः सन्नपि समाजशक्तिं लोकशक्तिं च प्रति सः समर्पितः, लोकसङ्ग्राहकरूपेण नवीनानां कीर्तिमानानां प्रतिष्ठापकं तस्य व्यक्तित्वम्। मित्रता कीदृशी स्यात् एवं जिज्ञासिते सति सुदाम्नः घटनां को नाम विस्मर्तुम् अर्हेत्? तथा च युद्धभूमौ सत्यपि एतावति महिम्नि असौ सारथित्वं स्वीकृतवान्। कदाचित् पर्वतशीलोत्तोलनं, कदाचित् भोजनस्य उच्छिष्टपात्रकाणाम् उत्थापनकार्यम्, अर्थात् प्रत्येकमपि वस्तुनि किमपि अभिनवत्वम् अनुभूयते। अत एव यदा अहं भवद्भिः सम्भाषमाणोऽस्मि तदा ममावधानं मोहनद्वयं प्रतियाति। एकतस्तु सुदर्शनचक्रधारी मोहनः, अपरश्च चरखाधारी मोहनः। सुदर्शनचक्रधारी मोहनः यमुनातटं विहाय गुर्जरप्रदेशे समुद्रतटं प्रयातः, तत्र च द्वारिका नगर्यां स्थितः। तथा च समुद्रतटे समुत्पन्नः मोहनः यमुनातटम् आगत्य दिल्ल्यां जीवनस्य अन्तिमं श्वसनम् अकरोत्। सुदर्शनचक्रधारी मोहनः तदानीन्तनासु स्थितिष्वपि सहस्राधिकेभ्यः वर्षेभ्योऽपि प्राक् युद्धपरिहारार्थं, सङ्घर्षनिरसनार्थं च निजबुद्धेः, स्वीयकर्तव्यस्य, निजसामर्थ्यस्य, स्वीयचिन्तनस्य च पूर्णोपयोगम् अकरोत्। तथा च चरखाधारी मोहनः अपि स्वतन्त्रतावाप्तये अनन्यतमं तादृशं पन्थानं चितवान्, मानवीयमूल्यानां संरक्षणार्थं व्यक्तित्वस्य मूलतत्त्वानि सामर्थ्ययुतानि स्युः इत्येतदर्थं स्वतन्त्रतासङ्घर्षम् एतादृशं स्वरूपम् अदात्। तादृशमावर्तनम् अकरोत् यद्धि विश्वस्मिन्नपि विश्वे अनुपमं वर्तते, साम्प्रतमपि अनुपममेव। भवेन्नाम निःस्वार्थसेवायाः महत्त्वम्, आहोस्वित् ज्ञानस्य महत्त्वम्, उताहो जीवनस्य सर्वास्वपि उच्चावच स्थितिषु सस्मितम् अग्रेसरणस्य वा महत्त्वं भवेत्, एतत् सर्वं वयं भगवतः श्रीकृष्णस्य सन्देशेभ्यः शिक्षितुं शक्नुमः। अत एव श्रीकृष्णस्तु जगद्गुरुरूपेणापि सुख्यातः। कृष्णं वन्दे जगद्गुरुम्। अद्य वयं यदा उत्सवानां चर्चां कुर्मः तदा भारतम् अपरस्य बृहत्तरस्य उत्सवस्य सन्नद्धतायां संलग्नम्। न केवलं भारते, अशेष जगति अपि विषयोऽयं परिचर्च्यते। मम प्रियाः देशवासिनः, अहमत्र महात्मा गान्धिनः सार्धशत जयन्तीं सन्दर्भयामि। ऊनविंश शताब्दे ऊनसप्ततितमे वर्षे अक्टोबर मासे द्वितीय दिने पोरबन्दरे समुद्रतट समीपं स्थितं यत् वयं साम्प्रतं कीर्ति मन्दिरमिति वदामः तत्र एकस्मिन् लघुगृहे नैकस्य जनस्य अपि तु एकस्य युगस्य जन्म अजायत। यद्धि मानवेतिहासं नूतनावर्तनेन अलङ्कृतवत् नवीनानि कीर्तिमानानि स्थापितवत्। महात्मा गांधिना साकं वृत्तमेकं सर्वदा संयुक्तम् अवर्तत, अन्यतम प्रकारेण तस्य जीवनस्य अभिन्नांगत्वेन अवर्तत। तदासीत् सेवा, सेवाभावः, सेवां प्रति कर्तव्यपरायणता च। तस्य पूर्णं जीवनं पश्येम चेत् दक्षिण अफ्रीका देशे तेषां समुदायानां जनान् असेवत, ये हि जातीय भेदभावं सम्मुखीकुर्वन्ति स्म। तस्मिन् युगे तु नैतत् लघुवृत्तम् आसीत्। सः तान् कृषकान् असेवत यैः साकं चम्पारणे भेदेन व्यवह्रियते स्म। सः तान् निर्माणि श्रमिकान् सेवितवान् येभ्यः नोचितं पारिश्रमिकं प्रदीयते स्म। सः निर्धनान्, निराश्रितान्, दुर्बलान्, क्षुधितान् चासेवत। एतादृशीं सेवां च स्वीय जीवनस्य परमं कर्तव्यम् अमन्यत। कुष्ठरोग विषयिण्यः कियत्यः भ्रान्तयो अवर्तन्त, तासां भ्रान्तीनाम् अपाकरणार्थम् असौ स्वयं कुष्ठरोगिणः सेवते स्म। स्वजीवने सेवा माध्यमेन उदाहरणानि प्रस्तौति स्म। सेवा नाम न तेन शब्दैः विहिता, जीवनेपि चरितार्थी कृता। सत्येन साकं गांधिनः यावान् अभिन्नः सम्बन्धः आसीत्, सेवया सार्धमपि गांधिनः तावानेव अनन्यः अभिन्नश्च सम्बन्धः आसीत्। यस्य कस्यापि कृते यदापि यत्रापि च आवश्यकता अनुभूयते स्म, महात्मा गांधी सेवार्थं सर्वदैव उपस्थितः अवर्तत। सः न केवलं सेवा विषयं सबलं ख्यापितवान्, अपि तु अनया साकं सम्बद्धम् आत्मसुखमपि सविशेषं निरदिशत्। सेवा शब्दस्य सार्थकता तु अस्मिन्नेव अर्थे समाहिता अस्ति यत् सा सानन्दम् अनुष्ठीयेत। सेवा परमो धर्मः, किन्तु युगपदेव उत्कृष्टः आनन्दः स्वान्तः सुखाय इत्यस्मिन् भावस्य अनुभूतिरपि सेवायामेव अन्तर्निहिता अस्ति। एतत्तु वयं बापूचरणस्य जीवनात् सम्यक्तया अवगन्तुं शक्नुमः। महात्मा गांधी अगणित भारतीयानां वाणीरूपः तु अजायत एव, परन्तु मानव मूल्यस्य मानव गरिमणश्च कृते अन्यतम प्रकारेण असौ विश्ववाणी अवर्तत। महात्मा गांधिनः कृते व्यक्तिः, समाजश्च, मानवः, मानवता चेत्येव एतत् सर्वम् आसीत्। भवतु नाम तत् अफ्रीका देशे फोयनिक्स क्षेत्रं वा टॉलस्टॉय क्षेत्रं, साबरमत्याश्रमः वा वर्धाश्रमः, सर्वेष्वपि स्थानेषु निज मौलिक रीत्या समाज संवर्धनं तेन सर्वदा सबलं ख्यापितम्। ममेदं परमं सौभाग्यम् आसीत् यदहं पूज्य महात्मा गांधिना सम्बद्धानि बहूनि महत्वपूर्णानि स्थलानि गत्वा नमनावसरम् अलभे। वक्तुं शक्नोमि यत् गांधी बापुः सेवाभावेन संघटनभावमपि सविशेषम् आमिनोति स्म। समाज सेवा, समाज संवर्धनं च तादृशी एषा भावना अस्ति या अस्माभिः निज व्यावहारिक जीवने स्वीकर्तव्या। यथार्थत्वेन महात्मा गांधिनः कृते समर्प्यमाणोऽयं समुचितः श्रद्धाञ्जलिः, यथार्थः कार्याञ्जलिः च वर्तते। एतादृशा बहवो अवसराः आयान्ति, वयं सम्मिलामोऽपि, परन्तु किं गांधिनः सार्धशति एवमेव आगत्य व्यतीयात्? एतत् स्वीकुर्याम किमु? न कथमपि। देशवासिनः वयं सर्वे आत्मानं पृच्छेम, चिन्तयेम, मन्थनं कुर्याम, सामूहिकरूपेण च संवदेम। वयं समाजस्य इतरजनैः सम्भूय, सर्ववर्गीयैः सम्मिल्य, सर्वायुष्मद्भिः मिलित्वा च, भवतु नाम सः ग्रामः, तन्नगरं वा, स्याद्वा पुरुषः महिला वा, सर्वैः सम्भूय समाजस्य च कृते किं कुर्याम? अन्यतम नागरिकत्वेन केन प्रकारेण अहं तेषु प्रयासेषु किं संयोजयेयम्? मम पक्षतः वैल्यू एडिशन इति मूल्य संयोजनं किं स्यात्? तथा च सामूहिकतायाः काचित् स्वीया एव शक्तिः भवति। अस्याः समग्रायाः गांधी सार्धशति जयन्त्याः कार्यक्रमेषु सामूहिकतापि स्यात्, सेवापि च भवेत्। कथं न वयं मिलित्वा समग्रायाः वसतेः निर्गच्छेम? यदि अस्माकं पादकन्दुक क्रीडकानां वृन्दमस्ति, तर्हि वयं पादकन्दुक क्रीडां तु खेलिष्यामः एव। युगपदेव गांधिनः आदर्शानुरूपम् एकं द्वे वा सेवाकार्येऽपि करिष्यामः। अस्मदीया महिला गोष्ठी अस्ति, आधुनिकयुगस्य महिलागोष्ठ्याः यानि कार्याणि तानि कुर्वन्तः स्थास्यामः, साकमेव महिलागोष्ठ्याः सर्वाः सख्यः मिलित्वा किमपि किमपि सेवाकार्यमपि सम्भूय करिष्यामः। बहु किमपि कर्तुं शक्नुमः। पुरातन पुस्तकानि एकत्रीकुर्याम, निर्धनेभ्यः वितरेम, ज्ञानं च प्रसारयेम। दृढमहं मन्ये कदाचित् त्रिंशदुत्तर शतकोटि देशवासिनः त्रिंशदुत्तर शतकोटि कल्पनाः धारयन्ति, त्रिंशदुत्तर शतकोटि मिताः उपक्रमाः भवितुम् अर्हन्ति। न काचिदपि सीमा अस्ति। यत्किमपि मनसि समुद्भवेत् केवलं सदिच्छा स्यात्, सदहेतुः भवेत्, सद्भावः स्यात्, पूर्ण समर्पण भावस्य च सेवा स्यात्, सापि स्वान्तः सुखाय, एकस्मै अनन्यानन्दस्य अनुभूतये भवेत्। मम प्रियाः देशवासिनः, कतिपयेभ्यो मासेभ्यः प्रागहं गुजरातस्य दाण्डी स्थलम् अगच्छम्। स्वाधीनता आन्दोलने नमक सत्याग्रहः दाण्डी इति अतितरां महत्वपूर्णो हि आवर्तन बिन्दुः। दाण्डी स्थले महात्मा गान्धिने समर्पितम् अत्याधुनिकं संग्रहालयमेकम् उदघाटयम्। भवतां कृते ममायं दृढाग्रहः यत् भवन्तः अपि भविष्यति काले महात्मा गान्धिना सम्बद्धस्य कस्यचन अन्यतम स्थलस्य यात्रा हेतोः अवश्यं प्रयान्तु। इदं हि किञ्चिदपि स्थानं भवितुम् अर्हति, यथा पौरबन्दरं वा साबरमत्याश्रमः, आहोस्वित चंपारणं वा वर्धाश्रमः, उताहो दिल्ल्यां महात्मा गान्धिना सम्बद्धं स्थलं भवेत्। भवन्तो यदा एतादृशि स्थलानि प्रयान्ति, यदा स्वीय चित्राणि आदाय सामाजिक संचार माध्यमेषु अवश्यं संविभाजयेयुः, येन इतरेपि जनाः तेभ्यः प्रेरिताः भवेयुः, अपि च तैः चित्रैः साकं स्वीय भावनाभिव्यक्तिकरं वाक्यद्वयं वा वाक्यचतुष्टयम् अपि लिखन्तु। भवतां मनसि समुत्थिताः भावाः कस्याश्चन महत्याः साहित्यरचनायाः अपेक्षया अधिकतराः शक्तिमन्तो भवितारः। तथा चैवमपि सम्भाव्यते यत् साम्प्रतिके काले भवतां दृशौ भवल्लेखनी निरूपितं गान्धिनः रूपं कदाचित् अधिकतरं प्रासंगिकमपि प्रतीयेत। आगम्यमाने काले बहूनां कार्यक्रमाणां, प्रतियोगितानां, स्पर्धानां, प्रदर्शनीनां चापि योजना विनिर्मिता अस्ति। परन्तु सन्दर्भेऽस्मिन् अन्यतरम् अतितरां रोचकं वृत्तं वर्तते, यद्धि मया भवद्भिः संविभाजयितुम् अभिलष्यते। वेनिस बाइनेल इति अत्यन्तं प्रसिद्धः कलाकार्यक्रमः, यत्र अशेष जगतः कलाकाराः समायान्ति। साम्प्रतिके क्रमे वेनिस बाइनेल इत्यस्य भारतीय मण्डपे गान्धी महात्मनः स्मृति सम्बद्धा अतितरां रुचिरा प्रदर्शनी आयोजिता। अस्यां हरिपुरा समीक्षकाः विशेषेण रुचिपूर्णाः आसन्। भवन्तः स्मरन्तो भवेयुः यत् गुजरातस्य हरिपुरा नगरे कांग्रेस अधिवेशनम् अभवत्, यत्र सुभाष चंद्र बोस वर्यस्य अध्यक्ष निर्वाचनस्य घटना इतिहासाभिलेख्या जाता। एतेषां कला समीक्षकाणाम् अतितराम् रम्यम् अतीतं वर्तते। कांग्रेस हरिपुरा अधिवेशनात् प्राक् ऊनविंशशतोत्तर सप्तचत्वारिंशत् अष्टचत्वारिंशत् तम वर्षे महात्मा गांधी शांति निकेतन कला भवनस्य तत्कालीनं प्राचार्यं नंदलाल बोस महोदयं आमंत्रितवान्। गांधीचरणः समीहते स्म यत् सः भारतवासीनां जीवन शैलीं कला माध्यमेन प्रदर्शयेत्, तथा च तद् विरचितानां कलाकृतीनां प्रदर्शनम् अधिवेशनावसरे भवेत्। अयं सः एव नंदलाल बोसः, यस्य कलाकृतयः अस्माकं संविधानस्य शोभां संवर्धयन्ति, संविधानाय नूतनम् अभिज्ञानं प्रयच्छन्ति। तस्येयं कला साधना संविधानेन साकमेव नंदलाल बोसमपि अमरताम् अनयत्। नंदलाल बोसः हरिपुरा स्थलं परिवर्तिनां ग्रामाणां निरीक्षणं व्यदधात्, अन्ते च ग्रामीण भारतस्य जीवन प्रदर्शकाः कलापटाः तेन विरचिताः। आसाम उत्कृष्ट कलाकृतीनां चर्चा वेनिस इत्यत्र प्रबला अजायत। पुनरेकवारं गांधिनः सार्धशती जयन्ति अवसरे शुभकामनाभिः साकं प्रत्येकमपि हिन्दुस्थानीतः कञ्चनापि संकल्पं दृढम् अपेक्षे। देशार्थं, समाजार्थं, कस्मैचन अपरस्मै वा किञ्चिदपि नूनं करणीयम्। अयमेव बापूचरणस्य कृते सम्यक् यथार्थः प्रामाणिकश्च कार्याञ्जलिः भविता। मातुः भारत्याः सुपुत्राः, भवन्तः स्मरन्तः स्युः यत् विगतेभ्यः कतिचन वर्षेभ्यः वयम् अक्टोबर मासस्य द्वितीयदिनाङ्कात् प्राक् प्रायेण द्विसप्ताहं यावत् सम्पूर्णेऽपि देशे स्वच्छता एव सेवा इत्यभियानं प्रचालयामः। साम्प्रतिके क्रमे इदं सेप्टेम्बर मासे एकादशदिनाङ्कात् आरब्धा। अस्मिन्नवधौ वयं स्वस्वगृहेभ्यो निर्गत्य श्रमदानमाध्यमेन महात्मगान्धिने कार्याञ्जलिं प्रदास्यामः। गृहाणि स्युः वा वीथ्यः, मार्गचत्वराः भवन्तु वा प्रणालिकाः, विद्यालय महाविद्यालयेभ्यः आरभ्य सर्वेष्वपि सार्वजनिकस्थलेषु स्वच्छतायाः महाभियानं प्रचालनीयम्। साम्प्रतिके क्रमे प्लास्टिक इति अभिघट्य विषये विशेषावधानं प्रदेयम्। ऑगस्ट मासे 15 दिनांके रक्तदुर्गस्य प्राचीरात् मया उक्तं यत् येन उत्साहेन यया च ऊर्जया सपाद शतकोटि देशवासिनः स्वच्छताभियानं प्रचालितवन्तः, अनावृते शौचकरणात् मुक्ति हेतोः कार्यम् अनुष्ठितं, तथैव अस्माभिः सम्भूय सिंगल यूज प्लास्टिक इत्येकलोपयुज्याभिघट्यस्य प्रयोगो निराकरणीयः। अस्याभियानस्य विषये समाजस्य सर्वेष्वपि वर्गेषु उत्साहोस्ति। मम बहवो व्यापारिणः भ्रातरो भगिन्यश्च आपणेषु पट्टमेकं प्रदर्श पत्रमेकं च स्थापितवन्तः, यस्मिन् लिखितं ग्राहकः स्वीयं स्यूतं सहैव आदाय आगच्छेत्। एवं हि धनमपि रक्षिष्यते, पर्यावरण रक्षायै च नैजं योगदानमपि कर्तुं शक्षते। साम्प्रतिके क्रमे अक्टोबर मासस्य द्वितीय दिनांके यदा गांधीचरणस्य सार्धशती जयन्तीम् आयोजयिष्यामः, एतस्मिन्नवसरे वयं न केवलं तस्मै अनावृते शौचकरणात् मुक्तं भारतं अर्पयिष्यामः, अपि तु देशे अभिघट्य विरुद्धं एकस्य नवीनस्य जनान्दोलनस्य आधारशिलां स्थापयिष्यामः। समाजस्य सर्वानपि वर्ग्यान्, प्रत्येकमपि ग्रामोपनगर पुरवासिनो निवेदयामि, करबद्धं च प्रार्थयामि यत् वर्षेस्मिन् गांधीचरणस्य सार्धशती जयन्तीम् अन्यतम प्रकारेण अस्मदीयायाः भारतमातुः कृते अभिघट्यावकरात् मुक्तिरूपेण आयोजयेम। अक्टोबर द्वितीय दिनांकं विशेष दिवस रूपेण मन्यामहि। महात्मा गांधी जयन्ती दिनं विशेष श्रमदानोत्सवः भवेत्। देशस्य सर्वाः अपि नगरपालिकाः, नगरनिगमाः, जनपद प्रशासनानि, ग्रामपञ्चायतानि, सर्वकारीयाः, सर्वकारेतरीया च व्यवस्थाः, प्रत्येकमपि नागरिकः, सर्वाणि च संघटनानि मया सानुरोधं विनिवेद्यन्ते यत् अभिघट्यावकराणां समाहरण संग्रहयो कृते समुचिता व्यवस्था स्यात्। नैगमक्षेत्राणि अपि प्रार्थये यत् सर्वमपि अभिघट्यावकर जातं यदा एकत्रीकृतं भवेत् तदनु अस्योचित निस्तारण हेतोः तानि प्रयतेरन्, निस्तारणं च व्यवस्थापयेयुः। प्रयुक्त वस्तु पुनः प्रयोगार्हं विधातुं शक्यते, एतद् इंधन रूपेणापि निर्मातुं शक्यते। एवं प्रकारेण ऐषमः दीपावली पर्व पर्यन्तं वयम् अभिघट्यावकराणां सुरक्षितं निस्तारण कार्यमपि पूर्णतां नेतुं शक्नुमः। केवलं संकल्पः अपेक्षते, प्रेरणार्थम् इतस्ततः अवलोकनस्य आवश्यकता नास्ति। गांधीचरणतः महत्तरा प्रेरणा का वा भवितुम् अर्हति। मम प्रियाः देशवासिनः, अस्मदीयानि संस्कृत सुभाषितानि अन्यतम प्रकारेण ज्ञानरत्नानि सन्ति। जीवने यत्किमपि वयम् अभिलषामः तत् तेभ्यः प्राप्तुं शक्यते। एतेषु दिनेषु मम सम्पर्कः न्यूनीभूतः, किन्तु पूर्वं मम सम्पर्कः सुबहु आसीत्। अद्याहम् एकस्मात् संस्कृत सुभाषितात् बहुशः महत्वपूर्ण वृत्तं स्प्रष्टुं वाञ्छामि। एतानि च शताब्देभ्यः पूर्वं लिखितानि वृत्तानि सन्ति, परं च साम्प्रतमपि एतेषां कियत् महत्वमस्ति। एकम् उत्तमं सुभाषितम्। सुभाषितेऽस्मिन् च प्रोक्तं, पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं, मूढै पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते। अर्थात् पृथिव्यां जलम् अन्नं सुभाषितं चेति त्रीणि रत्नानि सन्ति। मूर्खाः जनाः पाषाणं रत्नेति वदन्ति। अस्मदीयायां संस्कृतौ अन्नस्य महान् महिमा प्रवर्तते। एतावत् पर्यन्तं यत् वयम् अन्नस्य ज्ञानं विज्ञाने परिवर्तितवन्तः, अस्माकं सर्वेषां कृते संतुलितं पोषकं च भोजनम् आवश्यकम्। विशेषतया च महिलानां, नवजात शिशूनां च कृते, यतोहि एताः एते चैव अस्मदीय समाजस्य भविष्यतः आधारशीलात्वेन वर्तन्ते। पोषणाभियानस्य अन्तर्गतं कृष्णेपि देशे आधुनिकाभिः वैज्ञानिक पद्धतिभिः पोषणं जनान्दोलनं विधीयते। जनाः नवीनानां रुचिकराणां च युक्तीनां माध्यमेन कुपोषणं विरुध्य युध्यन्ति। कदाचित् ममावधाने वृत्तमिदं आनीतमासीत्। नाशिके मुठ्ठीभर धान्य इति मुष्टिकापूर्णं धान्यमिति बृहदेकम् आन्दोलनम् अभवत्। एतदन्तर्गतं शस्य लवणावसरे आंगनवाड़ी सेविकाः जनेभ्यः मुष्टिकापूर्णं धान्यम् एकत्रीकुर्वन्ति। अस्य अन्नस्य उपयोगः बालानां महिलानां च कृते उष्ण भोजन निर्माणार्थं क्रियते। अस्मिन् अन्नप्रदाता एकतः जागरूक नागरिकत्वेन समाज सेवको भवति। एतदनु सः अस्य ध्येयस्य कृते स्वयमपि समर्पितो भवति। अस्य आन्दोलनस्य असौ अन्यतम रक्षकः भवति। वयं सर्वेपि कुटुम्बेषु हिन्दुस्थानस्य प्रत्येकमपि कोणेषु अन्नप्राशन संस्कार विषये श्रुतवन्तः। संस्कारोऽयं तदा अनुष्ठीयते यदा प्रप्रथमं शिशवे घनः आहारः प्रारभ्यते। प्रवाही खाद्यं नैव घन खाद्यम्। गुजरात राज्ये 10-2000 वर्षे चिन्तितं यत् कथन्न अन्नप्राशन संस्कारस्य अवसरे बालेभ्यः उपहार खाद्यं प्रदीयेत, येन विषयेऽस्मिन् जनान् जागरूकान् विधातुं शक्येत। प्रशस्तोऽयं प्राथमिकोपायः यो हि यत्र कुत्रापि अङ्गीकर्तुं शक्यते। केषुचित् राज्येषु जनाः तिथिभोजनाभियानं प्रवर्तयन्ति। यदि कुटुम्बे जन्मदिनं भवेद्वा कश्चन शुभदिवसोऽस्ति, कश्चन वा स्मृतिदिवसः स्यात्, तर्हि कौटुम्बिकाः पौष्टिकभोजनं स्वादिष्टभोजनं च निर्मीय आङ्गनवाडीकेन्द्राणि प्रयान्ति, विद्यालयान् च गच्छन्ति, तथा च परिवारजनाः एव स्वयं बालेभ्यः परिवेषयन्ति, भोजयन्ति च, स्वीयानन्दमपि वितरन्ति। आनन्दश्च विवर्धते। सेवाभावस्य आनन्दभावस्य चाद्भुतमेलन दृश्यं सञ्जायते। सखायः एतादृंशी बहूनि लघु लघूनि वस्तूनि सन्ति येषां माध्यमेन अस्मदीयोऽयं देशः कुपोषणं विरुध्य प्रभावितया योद्धुं शक्नोति। अद्य जागरूकतायाः अभावेन कुपोषणात् निर्धनोऽपि समृद्धोऽपि इति द्विविधान्यपि कुटुम्बानि प्रभावितानि भवन्ति। सम्पूर्णेऽपि देशे सेप्टेम्बर् मासः पोषणाभियानरूपेण आमंस्यते। भवन्तः नूनम् अमुना आत्मानं संयोजयन्तु, सूचनाः आददतु, किञ्चित् नवीनं संयोजयन्तु, भवन्तोऽपि योगदानं कुर्वन्तु। यदि भवान् एकमपि जनं कुपोषणात् मोचयति चेत् वयं देशं कुपोषणात् मोचयामः।
हेलो सर, मेरा नाम सृष्टि विजय और मैं सेकंड ईयर की स्टूडेंट हूँ।
अभिनंदनम महोदय, मम नाम सृष्टि विद्या, अहम द्वितीय वर्षस्य छात्रा। महोदय, मासेऽस्मिन् 12 दिनाङ्के अहं बेयर ग्रिल्स् इत्यनेन साकं भवतः कथाभागम् अवलोकितवती, यस्मिन् भवान् अपि अवर्तत। महोदय, तं कथाभागम् अवलोक्य सुतरां सुखम् अन्वभवम्। सर्वप्रथमं तु इदं श्रुत्वा मह्यम् अरोचत यत् प्रकृतिं, वन्यजीवनं, पर्यावरणं च अवलम्ब्य भवान् कियान् सुबहु कृतावधानः। तथा च महोदय, इदं मह्यम् अतितराम् अरोचत यत् भवन्तं नूतनरूपेण साहसिक भूमिकायां वयं भवन्तं दृष्टवन्तः। तर्हि महोदय, ज्ञातुमिच्छामि यत् भवान् अस्य कथाभागस्य अवसरे कीदृशम् अनुभूतवान्। तथा च महोदय, अन्ते अपरमेकं वृत्तं संयोजयितुं वाञ्छामि यत् भवतः आरोग्यस्तरं, शारीरिकयोग्यतां च अवलोक्य मादृशाः युवजनाः अतितरां प्रभाविताः, अत्यन्तं च प्रोत्साहिताः अभूवन्। सृष्टि महोदये, भवत्याः दूरभाषाकारणायै धन्यवादः। भवतीमिव हरियाणा राज्यस्य सोहनातः श्री के पाण्डेयः, सूरतस्य ऐश्वर्या शर्मा महोदया, अपरे चानेके जनाः डिस्कवरी चैनल इत्यत्र प्रदर्शितस्य मैन वर्सेस वाइल्ड इति कथाभाग विषये जिज्ञासितवन्तः। साम्प्रतिके क्रमे यदाहं मन की बात प्रसारणार्थं चिन्तयन्नासं तदा दृढतया विश्वस्तः आसं यत् एतद् विषयका बहवः प्रश्नाः भवितारः, तथा चैवमेव संवृत्तम्। अपि च विगतेषु कतिपयेषु सप्ताहेषु यत्रापि अहं प्रयातः, जनान् च मिलितः, तत्र मैन वर्सेस वाइल्ड इति कथाभागस्य चर्चा भूयते स्म। अमुना एकेनैव कथाभागेन अहं केवलं हिन्दुस्थानस्य नैव अशेष जगतः युवभिः सम्पृक्तो जातः। न मया कदाचित् विचारितं यत् युवहृदयेषु ममेवं प्रकारेण एतावत् स्थानं भवितेति। न मया कदाचित् चिन्तितं यदस्माकं देशस्य जगतश्च युवजनाः कियतीभिः विविधताभिः सम्भरितानि वस्तूनि प्रति अवदधति। नाहं कदाचिदपि कल्पितवान् यद् अशेष जगतः युवहृदयानि स्प्रष्टुं कदाचित् मम जीवनेऽपि अवसरः संभविता। अन्यत् किं जायते, नाति चिरं विगते सप्ताहे भूटानं गतवान्। अहम् अवलोकितवान् यत् प्रधानमंत्री रूपेण यदा प्रभृति यत्रापि गमनावसरो लब्धः, अन्ताराष्ट्रिय योग दिवस कारणात् स्थितिः एतादृशी संवृत्ता यत् जगति यस्य कस्यापि पार्श्वे प्रयामि उपविशामि वा तदा यः कश्चन अपि पंच सप्त मिनट पर्यन्तं योग विषयिणीं प्रश्नोत्तरीं निश्चयेन मया साकं करोत्येव। कदाचिदेव जगतः कश्चन वरिष्ठः नेता भवेत् यो हि मया साकं योग विषयिणीं चर्चां नैवाकरोत्। अयं च सम्पूर्णेऽपि जगति मया अनुभूतो अनुभवोऽस्ति। परन्तु एतेषु दिनेषु नूतनः कश्चित् अनुभवः जायते। यः कश्चन अपि मिलति यत्रापि सम्भाषणस्य अवसरो लभ्यते, ते अरण्य जीवन विषयिणीं चर्चां कुर्वन्ति, पर्यावरण विषये च पृच्छन्ति। व्याघ्र सिंह जीव सृष्टि प्रभृतयः। अहं च आश्चर्यम् अनुभवामि यत् जनानां रुचि वैचित्र्यं कियत् महत् भवति। डिस्कवरी दृश्यवाहिनी कार्यक्रममेनं 65% देशेषु तत्तद् भाषासु प्रसारयितुं योजनां व्यदधात्। अद्य यदा पर्यावरणं ग्लोबल वार्मिंग इति जागतोष्णता ऋतु परिवर्तन चेति विषयाः वैश्विक मंथनस्य केन्द्रीभूताः सन्ति, आशासे यत् एवं विधे काले कार्यक्रमोऽयं भारतस्य सन्देशं भारतीय परम्पराः भारतस्य संस्कार यात्रायां च प्रकृतिं प्रति संवेदनशीलता एतेषु सर्वेषु वृत्तेषु विश्वम् अवगमयितुं डिस्कवरी दृश्यवाहिन्याः अयं कथाभागः भूयसीं सहायतां विधास्यति इत्यस्ति मम दृढीयान् विश्वासः। तथा च अस्मदीये भारते ऋतुन्यायं स्वच्छ पर्यावरणं च अभिलक्ष्य तद्दिशि विहितोपायान् अवगन्तुं जनाः समीहन्ते। किन्तु एकमपरं रुचिकरं वृत्तम् अस्ति, केचन जनाः ससंकोचं माम् अवश्यं पृच्छन्ति यत् मोदी महोदय, भवान् तु हिन्दीं भाषते स्म, बेर् ग्रिल्स् वर्यस्तु हिन्दीं नैव जानाति, तर्हि एतावता वेगेन भवतोः मध्ये संवादः केन प्रकारेण जायते स्म, किमिदम् अनन्तरं सम्पादितं, किं पौनःपुनिकं ध्वनि दृश्याङ्कनं जातं, किं संवृत्तमिति जनाः महत्या जिज्ञासया परिपृच्छन्ति। पश्यन्तु नात्र किमपि रहस्य जातं वर्तते, अनेकेषां जनानां मनस्सु इमे प्रश्नाः सन्ति, तर्हि रहस्यमिदम् उद्घाटयामि एव। वस्तुतस्तु नैतत् किमपि रहस्यम्। यथार्थतस्तु बेर् ग्रिल्स् वर्येण साकं संजात सम्भाषणे प्रविधे महीयान् उपयोगो विहितः। यदाहं किमपि वदन्नासं तदा सत्वरम् आङ्ग्लभाषायां युगपदेव अनुवादो जायते स्म, युगपदेव विश्लेषणं भवति स्म, तथा च बेर् ग्रिल्स् वर्येण कर्णे एकं लघु वितन्तूपकरणं धारितमासीत्। एवं हि अहं तु हिन्दीभाषया वदन्नासं, परन्तु सः आङ्ग्लभाषां शृणोति स्म, एतस्मात् कारणात् संवादः सुतरां सरलो जायते स्म। अयमेवास्ति प्रविधेः चमत्कारः। अस्य प्रसारणस्य अनन्तरं जनानाम् अधिसंख्यं जिम् कॉर्बेट् राष्ट्रियोद्यानविषये चर्चानिरतं दृष्टम्। भवन्तोऽपि प्रकृत्या वन्यजीवैश्च सम्बद्धानि स्थलानि अवलोकयितुं नूनं प्रयान्तु। मया पूर्वमपि प्रोक्तं, पुनश्च भवतो दृढतया कथयामि, निज जीवनावधौ उत्तरपूर्वम् अवश्यं गच्छन्तु। कियती अद्भुता प्रकृतिरस्ति तत्रत्या, भवन्तः पश्यन्तः एव स्थास्यन्ति, भवताम् आभ्यन्तरस्य विस्तरो भविता। ऑगस्ट मासे 15 दिनाङ्के रक्तदुर्गस्य प्राचीरात् अहं भवतः सर्वान् साग्रहं न्यवेदयम् यद् आगामीषु 3 वर्षेषु न्यूनातिन्यूनं 15 स्थानानि, भारताभ्यन्तरं 15 स्थानानि तथा च पूर्णरूपेण प्रतिशतं शतमिताय पर्यटनाय एव एतादृशी 15 स्थलानि नूनं गच्छन्तु, अवलोकयन्तु, तेषाम् अध्ययनं कुर्वन्तु, कुटुम्बं सहैव नीत्वा यान्तु, किञ्चित् कालं तत्र यापयन्तु। विविधताभिः सम्भरितोऽयं देशः, एताः विविधताः शिक्षकरूपेण भवतामपि आभ्यन्तरं विविधताभिः सम्भरिष्यति, भवतां नैज जीवनं विस्तृतिम् आपत्स्यते, भवतां चिन्तनं विस्तरिष्यति। मयि विश्वसन्तु, हिन्दुस्थानस्य आभ्यन्तरमेव एतादृशे स्थानानि सन्ति, यतो भवन्तः नवीनां स्फूर्तिं, नूतनोत्साहम्, अभिनवं मनोरथं, नूतनां च प्रेरणामादाय प्रत्यागमिष्यन्ति। इदमपि सम्भाव्यते यत् केषुचित् स्थानेषु तु पौनःपुनिकं गमनस्य समीहा भवतामपि भविता, भवतां कौटुम्बिकाः अपि एवं समीहेरन्। मम प्रियाः देशवासिनः, भारते पर्यावरणस्य चिन्ता संरक्षणविषयश्च स्वाभाविकतया निरीक्ष्येते। विगते मासे देशस्य व्याघ्रगणना विषयिणीं सूचनां प्रसारयितुं सौभाग्यम् अवाप्तवान्। किं भवन्तः जानन्ति यत् भारते कति व्याघ्राः सन्ति? भारते व्याघ्राणां संख्या 67-39% अस्ति। कतिपयेभ्यो वर्षेभ्यः प्राक् अस्याः अर्धमपि काठिन्येन अवर्तत। 10-2000 वर्षे रशिया देशे सेंट पीटर्सबर्ग स्थले व्याघ्राणां विषये टाइगर समिट इति शिखर सम्मेलनम् आयोजितम्। अस्मिन् व्याघ्राणां अपचीयमानां संख्याम् अभिलक्ष्य चिंता प्रकटन पुरस्सरं संकल्पितम् आसीत्। संकल्पोयम् आसीत् यत् 2020-2000 वर्ष पर्यन्तम् अशेष जगति व्याघ्राणां संख्या द्विगुणी कर्तव्येति। किन्तु एतदस्ति अभिनवं भारतम्। वयं शीघ्रातिशीघ्रं लक्ष्यपूर्तिं कुर्मः। 19-2000 वर्षे एव वयं व्याघ्राणां अत्रत्यां संख्यां द्विगुणितां कृतवन्तः। भारते केवलं व्याघ्राणां संख्या एव नैव समेधिता, अपितु संरक्षित क्षेत्राणां सामुदायिक परिहाराणां च संख्यापि एधिता। यदाहं व्याघ्राणां दत्तांशं विमोचयन्नासं तदाहं गुजरातस्य गीर सिंहानामपि स्मृतिम् अन्वभवम्। यदाहं गुजरातस्य मुख्यमंत्रिणः दायित्वम् आवहम् तदा गीर कानने सिंहानां वसतिः संकीर्णा जायते स्म, तेषां संख्या अल्पी भवति स्म। वयं गीर कानने उत्तरोत्तरं बहुविधान् समुपायान् अनुष्ठितवन्तः। 7-2000 वर्षे तत्र महिला रक्षिकाः नियोजयितुं निर्णीतम्। पर्यटनं विवर्धयितुं आधारिक संरचना परिष्कृता। यदापि वयं प्रकृतेः वन्यजीवानां च विषये ब्रूमः तदा केवलं संरक्षणस्य विषये एव विचारयामः, किन्तु साम्प्रतम् अस्माभिः संरक्षणात् अग्रे स्थित्वा करुणा विषयः परिशीलनीयः। अस्माकं शास्त्रेषु एतद् विषयकं सुबहु समीचीनं मार्गदर्शनं विहितम्। शताब्देभ्यः प्राक् अस्माकं शास्त्राणि अस्मान् प्रावोचन्, निर्वनो वध्यते व्याघ्रो निर्व्याघ्रम् छिद्यते वनम्, तस्माद् व्याघ्रो वनम् रक्षेत् वनम् व्याघ्रम् न पालयेत्। अर्थात् यदि वनम् नैव भवति चेत् व्याघ्राः मनुष्यवसतौ आगन्तुम् विवशी भवन्ति, यत्र ते व्यापाद्यन्ते। एवं च यदि वने व्याघ्राः नैव भवन्ति चेत् मानवाः वनानि उत्पाट्य तानि प्रणाशयन्ति। अतः वस्तुतस्तु व्याघ्रः वनम् रक्षति, न च वनम् व्याघ्रम्। कियता उत्तम प्रकारेण विषयोऽयम् अस्माकं पूर्वजैः अवगमितः। अत एव अस्माभिः न केवलं स्वीयानां वनानां वनस्पतीनां वन्यजीवानां च केवलं संरक्षणमेव करणीयम् अवशिष्यते, अपि तु एतादृशः परिवेशोऽपि परिकल्पनीयः येन ते समुचितरीत्या आत्मानं पोषयितुं संरक्षितुं च शक्नुयुः। मम प्रियाः देशवासिनः, 93-1800 वर्षे सेप्टेम्बर मासे 11 दिनांके स्वामिना विवेकानंदेन व्याहृतम् ऐतिहासिकाभिभाषणम् को नाम विस्मर्तुम् अर्हति? अशेष विश्वस्य मानव जातिम् प्रेंखयितुम् समर्थोयम् भारतस्य युवा सन्यासी, जगति भारतस्य तेजस्वी अभिज्ञानम् प्रदाय प्रत्यागतः। यदा दासीकृतम् भारतम् प्रति संसारः अतितराम् विकृतभावेन अवलोकयति स्म, 93-1800 वर्षे सेप्टेम्बर मासे 11 दिनांके तदा समुद्घोषिताः स्वामिना विवेकानन्देन सदृशानां महापुरुषाणां शब्दाः तं संसारं भारतं प्रति अवलोकनस्य मन्तव्य परिवर्तनार्थं विवशीकृतवन्तः। आगच्छन्तु, स्वामी विवेकानन्दः यस्य भारतस्य रूपम् अवलोकितवान्, यच्च सामर्थ्यम् अवगतवान्, तच्च जीवितुं वयं प्रयतेम। अस्माकम् आभ्यन्तरं वर्तते, सर्वम् अस्ति, आत्मविश्वासेन साकं प्रचलेम। मम प्रियाः देशवासिनः, भवन्तः सर्वे स्मरन्तस्स्युः यत् ऑगस्ट मासे 39 दिनं राष्ट्रखेल दिवस रूपेण आमान्यते। अवसरेऽस्मिन् वयम् अशेष देशे फिट इंडिया मूवमेंट इति सुस्वस्थ भारताभियानं प्रवर्तयिष्यामः। स्वयमपि युक्ततया स्थेयम्, देशोऽपि युक्तो विधेयः। प्रत्येकमपि आबाल युव वृद्ध महिला सहितेभ्यः अभियानमिदं अतितराम् रोचकं भविता, अपि चैतत् अस्मदीयं नैजं भविता। किन्तु अस्य सूक्ष्मता विषयः न मयाद्य वर्णयिष्यते। ऑगस्ट मासस्य 39 दिनं प्रतीक्षन्ताम्। स्वयमहं तद्दिने विस्तरेण विषयमेनं व्याख्यास्यामि। तथा च भवतां संयोजनं विना न मनागपि स्थास्यामि, यतो हि अहं भवतः सुस्वस्थान् द्रष्टुं वांछामि। सुस्वास्थ्य हेतोः भवतः जागरूकान् कर्तुं समीहे, तथा च सुस्वस्थ भारताभियानस्य कृते देशस्य च कृते वयं सम्भूय कानिचन लक्ष्याणि अपि निर्धारितानि कुर्याम। मम प्रियाः देशवासिनः, अहं भवतः प्रतीक्षे। एतन्मासे 29 दिने फिट इंडिया इति सुस्वस्थं भारतम् इत्यत्र सेप्टेम्बर मासे च पोषणाभियाने, विशेषेण आगामिनि मासे 11 अक्टोबरस्य द्वितीय दिनं यावत् स्वच्छताभियाने, अक्टोबरस्य द्वितीय दिने समग्रतया समर्पिताय अभिघट्यार्थम्। अभिघट्यात् मुक्तिमवाप्तुं वयं सर्वे गृहात् गृहाच्च बहिः सर्वत्र सम्पूर्ण शक्त्या प्रयतिष्यामहे। अपि चावगच्छामि एतानि सर्वाणि अभियानानि सामाजिक संचार माध्यमेषु सावेगम् उपस्थापितानि भवितारः। आगच्छन्तु नवीनोत्साहेन, नूतनेन संकल्पेन, अभिनव शक्त्या च सार्धमेव प्रचलेम। मम प्रियाः देशवासिनः, अद्यतने मन की बात प्रसारणे एतावदेव। पुनः मेलिष्यामः। अहं भवतां वृत्तानि परामर्शाञ्च प्रतीक्षे। आगच्छन्तु वयं सर्वे सम्भूय स्वाधीनतायाः कृते सर्वात्मना समर्पितानां स्वप्नान्वितं भारतं विरचयितुं गान्धिनः स्वप्नानि साकारीकर्तुं प्रचलेम। स्वान्तः सुखाय, आभ्यन्तरीणम् आनन्दं सेवाभावेन प्रकटयन्तः प्रचलेम। भूयांसो धन्यवादाः। नमस्कारः।